इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतीय जीवन बीमा निगम इत्यस्य बीमा शक्ति योजनायाः शुभारम्भः हरियाणायाः पानीपत जनपदे महाराणा प्रताप औद्यानिक विश्वविद्यालये कृतः। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् सम्पूर्णे विश्वे भारतं लोकतन्त्रस्य भूक्षेत्रस्य सांख्यिक्याः च शक्तेः प्रदर्शनं करोति। भारतीय जनता पार्टीति दलेन राहुल नार्वेकरः अद्य सर्वसहमत्या महाराष्ट्र विधानसभाध्यक्षः चितः। आम आदमी पार्टीति दलेन आगामिने दिल्ली विधानसभा निर्वाचनाय 20 प्रत्याशीनां द्वितीया सूची प्रकाशिता। अपि च हॉकी क्रीडायां महिलानां एशिया चषक स्पर्धायाः पूल ए इत्यस्मिन् अद्य भारतीय दलं मलेशिया दलं ओमान देशे सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य जयपुरे उदीयमान राजस्थान वैश्विक निवेश शिखर सम्मेलनम् इत्यस्य उद्घाटनं कृतम्। त्रिदिवसीय सम्मेलनं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् संशोधनं कार्यान्वयनं परिवर्तनं चेत्यादिभिः मन्त्रैः सह सर्वेषु क्षेत्रेषु भारतेन कृतानि विकासकार्याणि दृश्यन्ते।
परफॉर्म ट्रांसफॉर्म के मंत्र पर चलते हुए भारत ने जो विकास किया है वो हर क्षेत्र में नजर आता है। बीते 10 वर्षों में भारत ने अपनी इकोनॉमी के साइज करीब करीब डबल किया है। भारत का एक्सपोर्ट भी डबल हो गया है। बीते दशक में एफडीआई भी 2 गुना से अधिक हुआ है। भारत ने इंफ्रास्ट्रक्चर का खर्च करीब 2 ट्रिलियन रुपए से बढ़कर 11 ट्रिलियन तक पहुंचा दिया है।
आत्मनिर्भर भारत अभियानम वैश्विकम अस्ति, अस्य प्रभावोपि वैश्विकः वर्तते। एतदभियानम् उद्देश्य सर्वकारः समग्र दृष्टिकोणेन सह अग्रे सरति। श्रीमोदी प्रोक्तवान् यत् विश्वस्य निवेशकाः विशेषज्ञाश्च भारतम् उद्देश्य उत्साहिताः सन्ति। श्रीमोदी प्रोक्तवान् यत् भारतस्य सफलता लोकतन्त्रस्य जनसांख्यिक्याः अन्तर्जालीय सूचनातन्त्रस्य कार्यान्वयनस्य च शक्तौ प्रदर्शिता भवति। अस्मिन् अवसरे प्रधानमन्त्री प्रोक्तवान् यत् देशे सुदृढ लोकतन्त्रम् अस्ति, युवानः देशं विकासमार्गे अग्रे नेतुं महत्वपूर्ण भूमिकां निर्वहन्ति।
ये सदी टैक ड्रिवन डेटा ड्रिवन सदी है। भारत दुनिया को डेमोक्रेसी डेमोग्राफी और डेटा की असली ताकत दिखा रहा है। भारत ने दिखाया है कि कैसे डिजिटल टेक्नोलॉजी का डेमोक्रेटाइजेशन हर क्षेत्र हर वर्ग को फायदा पहुंचा रहा है।
प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् सम्पूर्णे विश्वे भारतं लोकतन्त्रस्य भूक्षेत्रस्य सांख्यिक्याः च शक्तेः प्रदर्शनं करोति। राजस्थाने निवेशाय आवश्यकाधारभूत सौविध्यानाम् उल्लेखं कुर्वन् श्रीमोदी प्रोक्तवान् यत् यदि राजस्थानं विकासस्य नवीन शिखरं स्पृशति तर्हि देशः अपि नवोन्नतिं प्राप्स्यति। प्राकृतिक संसाधनानां आधुनिक सूचनातन्त्रस्य समृद्ध संस्कृतेः सक्षम युवशक्तेः च उल्लेखं कुर्वन् प्रधानमन्त्री अकथयत् यत् एताः सर्वाः विशेषताः निवेशाय राजस्थानं महत्वपूर्ण राज्यत्वेन संस्थापयति। प्रधानमन्त्री अकथयत् यत् देशे विदेशी पर्यटकानां संख्या निरन्तरं समेधते, सहैव क्षेत्रीय पर्यटने अपि निरन्तरं नवीन कीर्तिमत् संस्थाप्यते। प्रधानमन्त्री प्रोक्तवान् यत् सूक्ष्म लघु मध्यमोद्यमाः कस्यापि देशस्य अर्थव्यवस्थां सशक्तं कर्तुं महत्वपूर्ण भूमिकां निर्वहन्ति। सर्वकारः अपि स्वनीतिभिः निर्णयैः सह सूक्ष्म लघु मध्यमोद्यम क्षेत्राणि निरन्तरं सशक्तं करोति। इतः पूर्वं कार्यक्रमं सम्बोधयन् मुख्यमंत्री भजनलाल शर्मा प्रोक्तवान् यत् सर्वकारः आगामि 5 वर्षेषु राज्यस्य अर्थव्यवस्थां द्विगुणीकर्तुं लक्ष्यं निर्धारितवान्। तेन आशा व्यक्तीकृता अस्ति यत् इदं शिखरसम्मेलनं विकसित भारतस्य विकसित राजस्थानस्य संकल्पं साकारं कर्तुं महत्वपूर्णं भविष्यति। अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतीय जीवन बीमा निगम इत्यस्य बीमा शक्ति योजनायाः शुभारम्भः हरियाणायाः पानीपत जनपदे महाराणा प्रताप औद्यानिक विश्वविद्यालये कृतः। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय विदेश कार्य सचिव विक्रम मिस्त्री ढाका नगरे भारत बांग्लादेश विदेश कार्यालय परामर्श मंडले भारतीय प्रतिनिधि संघस्य नेतृत्वं स्वस्य बांग्लादेश प्रतिपक्षेन जसीम उद्दीन सह करोति। अद्य प्रातः एकादशवादने ढाका नगरस्य पद्मा स्टेट गेस्ट हाउस इत्यत्र परामर्शः समारब्धः। श्री मिस्त्री अद्य प्रातः सार्धाष्टवादने भारतीय वायुसेनायाः विमानेन ढाका नगरं प्राप्तवान्। सभायाः अनन्तरं विदेश सचिवः भोजने भागग्रहणं बांग्लादेशस्य विदेश प्रकरणस्य परामर्शदेन मोहम्मद तौहिद हुसैन इत्यनेन सह शिष्ट संवादं करिष्यति। भारतीय जनता पार्टी दलेन राहुल नार्वेकरः अद्य सर्वसहमत्या महाराष्ट्र विधानसभाध्यक्षः विचितः। श्री नार्वेकराय अस्मिन् पदे नियुक्तये मुख्यमंत्री देवेन्द्र फडणवीसः उपमुख्यमंत्रिणो अजीत पवार एकनाथ शिंदे इत्येतौ प्रस्तावम् अयच्छन्। मुख्यमंत्री देवेन्द्र फडणवीसः अत्रावसरे श्री नार्वेकराय वर्धापनानि प्रदत्तवान्। विश्वासं च प्रकटितवान् यत् नार्वेकरः निष्पक्षतया सदनस्य कार्याचरणं संचालयन् सदनस्य परम्परां स्थापयिष्यति। विधानसभायाः कार्याचरणम् अद्य अवशिष्टानां नवनिर्वाचितानां विधायकानां शपथग्रहणवचनेन सह समारब्धम्। येभ्यः अस्थायी अध्यक्षेण कालिदास कोलम्बरेण शपथवचनम् अकारितम्। महाराष्ट्रस्य राज्यपालः सीपी राधाकृष्णन् विधानसभायाः विधानपरिषदः च संयुक्तसत्रं सम्बोधयिष्यति। तदनु उभयोः सदनयोः विभिन्नाः अध्यादेशाः प्रस्तोष्यन्ते। अल्पसंख्यक कार्य मन्त्रालयः अवदत् यत् देशे पारसी उतवा जोराष्ट्रियन् इत्येतेषां जनसंख्यायां विगत वर्षेषु सततं न्यूनता समायाता। राज्यसभायाम् एकस्य प्रश्नस्य लिखिते प्रत्युत्तरे केन्द्रीय अल्पसंख्यक कार्यमन्त्री किरेन रिजिजू अवदत् यत् एकचत्वारिंशदधिक नवदशशततमे वर्षे देशे 1.14 लक्षतः अधिकाः पारसी धर्मजनाः आसन्, यानि 11.2 लाख वर्षस्य जनगणनानुसारं 75,000 यावत् न्यूनाः जाताः। केन्द्रीयमन्त्री अवदत् यत् राष्ट्रिय अल्पसंख्यक आयोग अधिनियमस्य अन्तर्गतम् अधिसूचितानाम् एतेषाम् अल्पसंख्यकानां समूहानां जनसंख्यायाः अल्पतां निवारयितुं केन्द्रेण अनेके उपक्रमाः कृताः सन्ति। आम आदमी पार्टी दलेन आगामिने दिल्ली विधानसभा निर्वाचनाय 20 प्रत्याशिनां द्वितीया सूची प्रकाशिता अस्ति। अनेन दलेन पूर्व मुख्यमन्त्रिणे मनीष सिसोदिया इत्यस्मै जंगपुरा क्षेत्रम्, अवध ओजा इत्यस्मै पटपड़गंज क्षेत्रम्, राखी बिडला इत्यस्मै मादीपुर क्षेत्रम्, प्रवीण कुमाराय जनकपुरी क्षेत्रम्, सुरेन्द्रपाल सिंहाय तिमारपुर विधानसभा क्षेत्रम् च आवंटितम्। झारखंड विधानसभायाः चतुर्दिवसीयस्य विशेष सम्मेलनस्य आरम्भः रांची नगरे नवनिर्वाचित सदस्यानां सभायां स्वागतेन सह संजातः। मुख्यमंत्री हेमंत सोरेनः सर्वैः 80 विधायकैः सह शपथवचनं स्वीकृतवान्। कार्यवाहक सभाध्यक्षः स्टीफन मारंडी इत्येषः नवनिर्वाचितेभ्यः सदस्येभ्यः शपथवचनं प्रदत्तवान्। अध्यक्षस्य निर्वाचनं श्वो भविष्यति। तदनन्तरं हेमंत सोरेन सर्वकारस्य कृते विश्वासमतं भविष्यति। ततः परं राज्यपालः संतोष कुमार गंगवारः विधानसभां संबोधयिष्यति। राज्यपालस्य अभिभाषणानन्तरं वर्तमानस्य वित्त वर्षस्य द्वितीयं अनुपूरक आयव्ययिक विधानसभायां प्रस्तोष्यते। हॉकी क्रीडायां महिलानां एशिया चषक स्पर्धायाः पूल ए इत्यस्मिन् अद्य भारतीय दलं मलेशिया दलं ओमान देशे सम्मुखीकरिष्यति। इति वार्ताः।